श्री गणेशाय नमः नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरिन्नित्यं मायुः कामार्थसिद्धये तुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं लम्बोदरं पञ्चमं च षष्ठं विकटमेव च नवमं भालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननम्
द्वादशैतानि नामानि त्रिसंज्ञं यः पठेन्नरः त्रिचविघ्नभयं तस्य सर्वसिद्धिकरं प्रभो
लभते धनम्
पुत्रार्थी लभते पुत्रा
मोक्षार्थी लभते गतिम्
चतुर्गणपति स्तोत्रम् षड्विश्वासैः फलम् लभे संवत्सरेण सिद्धिम् च लभते नात्र संशयः
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वाय समर्पये तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः
इति श्रीनारदपुराणे सङ्कष्टनाशनम् नाम श्रीगणपतिस्तोत्रम् सम्पूर्णम्।